अखण्डम् अजम्भानुकोटि प्रकाशम् त्रयशूलनिर्मूलनम् शूलपाणिम् भजेऽहम् भवानीपतिम् भावगम् कलातीत कल्याण।